एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सर्वकारेण निर्वाचनस्य वातावरणम् निर्मातुम् राजनीतिकदलैः संवादस्य कार्याय तीव्रता प्रदत्तास्ति। अस्मिन् क्रमे सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च जगदीश खरेल ह्य नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन, नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, नेपाली कम्युनिष्ट दलस्य संयोजकेन पुष्पकमल दाहाल प्रचण्डेन च सह तेषाम् निवासमेव प्राप्य निर्वाचनम् सफलम् विधातुम् विमृष्टवान् वर्तते। मेलने संचार मन्त्री खरेल राष्ट्रिय सहमतिम् धृत्वा आगामिना फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितम् प्रतिनिधि सभा सदस्यानाम् निर्वाचनम् सफलम् विधातव्यम्, सर्वैर्मिलित्वा देशाय वर्तमान स्थितितः समाधानम् प्रदाय अग्रे वर्धितुम् अनुरुणत। मेलनस्य पश्चात् संचारकर्मीभिः सह भाषमाणः सर्वकारस्य प्रवक्ता संचार मन्त्री च खरेल निर्वाचनस्य सन्दर्भे नेतारः अनुकूलाः सन्ति, निर्वाचनस्य वातावरणम् निर्मातुम् सर्वकारेण सुरक्षायाः प्रत्याभूतेः दाफनत्वेन कार्यकरणस्य आवश्यकता अस्तीति असूचयत्। निर्वाचनायोगेन निर्वाचन सूचना सम्प्रेषण समन्वय केन्द्रस्य स्थापना विहितास्ति। कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी ह्य केन्द्रस्य उद्घाटनम् विदधान आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानम् प्रतिनिधि सभा सदस्यानाम् निर्वाचनम् स्वच्छम् स्वतन्त्रम् निष्पक्षम् पारदर्शी विश्वसनीयम् च विधातुम् सूचना सन्देशम् प्रवाहयितुम् च केन्द्रस्य स्थापना विहितास्तीति असूचयत्। कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी निर्वाचनम् स्वच्छम् स्वतन्त्रम् निष्पक्षम् पारदर्शी विश्वसनीयम् च विधातुम् तथ्यपरकायः अधिकाधिक सूचनायाः प्रभावकारी सम्प्रेषणम् विधातव्यमिति प्रावोचत्। आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई एतत्पूर्वम् सम्पन्नेषु निर्वाचनेषु अवशिष्टानाम् सामग्रीणाम् प्रयोगम् विधाय तदभावे एव नवीनाः सामग्र्यः क्रेष्यन्ते इति असूचयत्। निर्वाचनस्य क्रमे सामाजिक सञ्जालेषु जायमानाम् मिथ्याम् सूचनाम् दुष्प्रचारयुताम् द्वेषपूर्णाम् अभिव्यक्तिम् च अवरुद्धुम् आयोगस्य सूचनायाः निर्वाचनाचार संहितायाः मतदातृ शिक्षा सम्बद्धानाम् सञ्चेतनामूलक सामग्रीणाम् सम्प्रेषणम् केन्द्रेण विधास्यते इति आयोगेन ज्ञापितम् वर्तते। आयोगेन निर्वाचनस्य विषये विधीयमानानाम् कार्याणाम् विषये अवबोधनाय ह्यस्तन दिवसात् साप्ताहिकम् पत्रकार सम्मेलनम् प्रारब्धम् अस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः नवनियुक्तम् परराष्ट्रमन्त्रिणम् बालानन्द शर्माणम् ह्यः पदगोपनीयतयो शपथम् अग्राहयत्। शीतल निवासवर्तिनी राष्ट्रपति भवने पूर्वे द्युः आयोजिते शपथ समारोहे राष्ट्रपतिः पौडेलः परराष्ट्रमन्त्रिणम् शर्माणम् पदगोपनीयतयो शपथम् अग्राहयत्। नवनियुक्तः परराष्ट्रमन्त्री शर्मा ह्य एव पदभारम् गृहीतवान् वर्तते। सर्वकारेण देशस्य विभिन्नानाम् जनपदानाम् नवसु स्थानेषु स्थानीय प्रशासन कार्यालयानाम् स्थापनाम् कर्तुम् निर्णीतमस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन ताप्लेजुङ जनपदस्य श्रीजंगा स्थाने, डोल्पा जनपदस्य दो स्थाने, मुगु जनपदस्य खच्याड स्थाने, कालीकोट जनपदस्य राजकोट स्थाने, बाजुरा जनपदस्य कोल्टी स्थाने, डोटी जनपदस्य बीपीनगरे, दार्चुला जनपदस्य गोकुलेश्वर स्थाने, वैतडी जनपदस्य मेलौली स्थाने, शंखुवासभा जनपदस्य हेदाङ तागढ़ी स्थाने च स्थानीय प्रशासन कार्यालयानाम् स्थापनाम् विधातुम् निर्णीतमस्तीति संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च जगदीश खरेलः असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन प्रत्येकम् वर्षस्य पौषमासस्य पञ्चदशम् दिवसम् राष्ट्रिय छात्राक दिवसत्वेन आयोजयितुम् च निर्णीतम् अस्ति। छत्राक कृषेः प्रवर्धनाय राष्ट्रिय छत्राक दिवसम् आयोजयितुम् निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। एवमेव उपवेशेन नेपाल नागरिकता सम्बद्धाम् एतद् विक्रम वर्षीयाम् चतुर्थ संशोधन नियमावलीम् स्वीकर्तुम् च निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेश ह्योपि अवसत। कार्यवाहक सभापतेः पूर्णबहादुर खड्का विदस्य सभापतित्वे दलस्य केन्द्रीय कार्यालये उपविष्टे ह्यस्तनोपवेशे आगामिना फाल्गुन मासे आयोक्ष्यमाणस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य दलस्य महाधिवेशनस्य अन्येषु सामयिक विषयेषु च विमृष्टं वर्तते। कार्य सम्पादन समितेः उपवेश अद्य प्रातः एकादशवादने पुनः वसतीति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः सूचयति। नेपाली कांग्रेस दलस्य कार्यवाहक सभापति पूर्णबहादुर खड्का राष्ट्रिय राजनीत्यै गति प्रदानाय वर्तमान समस्यातः देशं मोचयितुं च महाधिवेशनं निर्वाचनं च उभयमपि अपरिहार्यस्त इति गदति। नैज विद्यालयानां शिक्षकाणां संघटनस्य नेपाल प्राध्यापक संघस्य ह्य सम्पन्ने प्रथम केन्द्रीय महाधिवेशने महामन्त्री खड्का दलं निर्वाचने प्रवर्तितमस्तीत्यतः सक्रियेण निर्वाचने प्रवर्तितुं सर्वान् कार्यकर्तृन् आह्वयत। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री श्रद्धा श्रेष्ठ निगदति ज्येष्ठ नागरिकाणां ज्ञानम् अनुभवश्च सामाजिक सम्पद वर्तते इत्यतः तेषां सम्मानपूर्णस्य सहभागितामूलकस्य च जीवनस्य सुनिश्चयनं कृत्वा राज्यस्य निर्माणं कर्तुं समेषां सहयोगस्य अपरिहार्यता वर्तते। नेपाले पञ्चम राष्ट्रिय ज्येष्ठ नागरिक दिवसस्य अवसरे पूर्वे द्युह काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री श्रद्धा श्रेष्ठ एवं बलम दत्तवती। स्वास्थ्य जनसंख्या मन्त्रालयेन शैत्यस्य समये अग्नितापस्य ग्रहणस्य समये हिटर वैद्युतोपकरणस्य प्रज्वालनस्य समये गिजरोपकरणस्य प्रयोगे च सावधानताम् अवलम्बितुम् अनुरुद्धं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अन्तर्गते राष्ट्रिय स्वास्थ्य शिक्षा सूचना सम्प्रेषण केन्द्रेण शैत्यस्य समये शरीरे प्रकोष्ठेषु च उष्णतायाः कृते अग्नेः प्रज्वालने हीटर इति वैद्युतोपकरणस्य गीजर इति उपकरणस्य च प्रयोगे च पर्याप्तरूपेण सावधानतायाः अनवलम्बनस्य कारणेन अप्रियघटनाः सम्भवन्ति इत्यतः एवम् अनुरुद्धं वर्तते। सुदूरपश्चिम प्रदेशे पश्चातन समये रेबिजिति पशुज संक्रामक रोगस्य अवस्था गभीरायमाना वर्तते। श्रृंगालस्य सुनश्च दंशनात् रेबिजिति पशुज रोगस्य प्रसरणस्य पश्चात् आ प्रदेशं जनस्वास्थ्य समस्या उत्पन्नास्ति इति समाचाराः।